एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन श्वः शुक्रवासराय संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशः आहूतोऽस्ति। मन्त्री परिषदः परामर्शेन नेपालस्य संविधानस्य 95तमायाः धारायाः अनुसारेण राष्ट्रपतिना पौडेलेन उपवेशः आहूतोऽस्ति। राष्ट्रपतेः कार्यालयस्य सचिवेन महादेव पन्थेन प्रकाशितस्य पत्रस्य अनुसारेण श्वः शुक्रवासरे द्वित्रिवादनाय संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशः अवस्था। उपवेशे राष्ट्रपतिना पौडेलेन सम्बोधनं करिष्यते। संघीय संसदः सचिवालयं सम्बोध्य प्रेषिते पत्रे द्वयोः सदनयोः उपवेशाय सदस्यानाम् उपस्थितये आह्वानं विहितमस्ति। प्रतिनिधिसभायाः ह्यस्तनोपवेशे एतद्विक्रमवर्षीयं वैकल्पिक विकास वित्त परिचालन सम्बद्धं विधेयकं प्रस्तुतं वर्तते। उपवेशे अर्थमन्त्री डॉ सोनिम वाग्ले वैकल्पिक विकास वित्त परिचालन विधेयक सम्बद्धं प्रस्तावं प्रस्तुवन् देशस्य समग्रस्य आर्थिक विकासस्य कृते आवश्यकानां स्रोतसां व्यवस्थापनं विधाय सबल पूर्वाधार प्रभृतीनां क्षेत्राणां विकासं कर्तुं वैकल्पिक विकास वित्त विधेये आवश्यकता अस्ति इति प्रावोचत्। स्तनोपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः कृषि पशु पक्षी विकास वन वातावरण मन्त्रिणा गीता चौधरिणा राष्ट्रिय प्राकृतिक स्रोतो वित्त व्यवस्थापन आयोगस्य एतद्विक्रमवर्षीयं वार्षिकं प्रतिवेदनं प्रस्तुतमासीत्। सभायाः ह्यस्तनोपवेशे सभामुख डोलप्रसाद अर्यालः प्रतिनिधिसभायाः उपसभामुख पदस्य निर्वाचनस्य कृते चैत्र मासस्य 27 दिवसे शुक्रवासरे समयं निर्धारितवान्। सहैव निर्वाचन कार्यक्रम सम्बद्धां सूचनां प्रकाशयितुं च निरदिशत्। प्रतिनिधिसभायाः उपवेशे सांसदाः सर्वकारेण आश्वासनस्य अपेक्षया प्रभावपूर्णायाः नागरिकमैत्र्याश्च सार्वजनिक सेवायाः प्रवाहस्य माध्यमेन परिणामं प्रदातुं बलं दत्तवन्तः। प्रतिनिधिसभायाः अपरोपवेशः श्वः शुक्रवासरे अपराह्नस्य 4 अवस्था। राष्ट्रियसभायाः ह्यस्तनोपवेशे अधिकार दुरुपयोगानुसन्धानायोगस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः संघीय विषय सामान्य प्रशासन भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री प्रतिभा रावलः अधिकार दुरुपयोगानुसन्धानायोगस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रास्तौत्। तत्पूर्वम् उपवेशे सांसदाः संसदि महत्वपूर्णे राष्ट्रिय राजनीतिके च विषययोः प्रतिपक्षिभिः सहकार्यस्य संस्कारं निर्मातुम् आवश्यकतां निश्चित्य समीचीनायाः नीतेः आवश्यकतायां बलं दत्तवन्तः। उपवेशे सांसदाः युद्धस्य कारणेन खातीय राष्ट्रे विद्यमानानां नेपालीनां सुरक्षायाः सुरक्षितरूपेण स्वदेशं प्रति प्रत्यानयनस्य च विषयेषु कौचनीतिक प्रयासाय प्रयत्नं विधातुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। प्रधानमन्त्रिणा बालेन्द्र शाहेन विभिन्नानां देशानां राजदूतैः सह सामूहिकरूपेण विमृष्टमस्ति। परराष्ट्रमन्त्रिणः शिशिर खनालस्य उपस्थितौ सम्भूते विमर्शने प्रधानमन्त्री शाह देशस्य पश्चात्तन राजनीतिकावस्थायाः सर्वकारस्य प्राथमिकतायाश्च विषयेषु अन्तर्राष्ट्रिय समुदायस्य समक्षं व्यज्ञापयत्। परराष्ट्र मन्त्रालयस्य अनुसारेण सर्वकारस्य आगामि कार्यदिशायाः प्राथमिकतायाश्च विषयाणां विज्ञापनस्योद्देश्येन विमर्शनम् आयोजितमासीत्। तदवसरे सहभागिभिः राजदूतैः नवीनस्य सर्वकारस्य कार्ययोजनायाः प्राथमिकतायाश्च विषयः जिज्ञासितः आसीत्। तदवसरे प्रधानमन्त्री शाह सर्वकारस्य प्राथमिकतायां सुशासनस्य आर्थिक विकासस्य च विषयौ प्राथमिकतायां स्तः इति विज्ञाप्य अनेन सर्वकारेण वैदेशिक सम्बन्धः सन्तुलितरूपेण अग्रेसार्यते इति प्रतिबद्धताम् अभिव्यनक्। संविधानस्य संशोधनार्थं विमर्शन प्रस्तावं प्रस्तोतुं कार्यदलस्य प्रथमोपवेशः ह्यः सम्पन्नोऽस्ति। प्रधानमन्त्रिणः बालेन्द्र शाहस्य राजनीतिक परामर्शदातुः कार्यदलस्य संयोजकस्य असीम शाहस्य अध्यक्षतायाम् उपविष्टे उपवेशे राजनीतिक दलानां लिखित धारणां संकलय्य संविधान संशोधनस्य विषयान् निर्धार्य कार्यदलस्य आगामि योजनां निर्माय अग्रे वर्धितुं निर्णीतमस्ति। संविधान संशोधनस्य प्रक्रिया राष्ट्रिय सहमतौ सहभागितायां तथ्याधारे च भविष्यतीति संयोजकः शाह अज्ञापयत्। शिक्षा विज्ञान प्रविधि मन्त्रालयेन अवैधानिक रूपेण संकलितं शुल्कं विद्यार्थिभ्यः एव प्रत्यावर्तयितुं निर्दिष्टं वर्तते। मन्त्रालयेन ह्यो विज्ञप्तिं प्रकाश्य देशस्य कतिपयैः संस्थागत विद्यालयैः अधुनापि विधि विपरीततया शुल्क ग्रहणस्य कार्याय नैरन्तर्यं प्रदीयमानमस्तीति वेदनायाः प्राप्तेः अनन्तरं अवैधानिक रूपेण गृहीतं तथा वित्तं प्रत्यावर्तयितुं सम्बद्धः समे पक्षः सम्बद्धा सर्वे पक्षीय निर्दिष्टा वर्तन्ते। मन्त्रालयेन केनापि विद्यालयेन अस्मान् निर्देशनात् अन्यथा विहितं प्राप्तं सत् तस्यैव अधिनियमस्य प्रावधानस्य अन्य प्रचलित विधे अनुसारेण स अतिरिक्तं दण्डनस्य आवश्यकतायां सत्यां गृहमन्त्रालयस्य सम्बद्ध जनपद प्रशासन कार्यालयस्य स्थानीय स्तरस्य च मध्ये आवश्यकं समन्वयं विधातुम् अनुरुद्धं वर्तते। सहैव विद्यार्थिनां शुल्क सम्बद्धायां वेदनायां सत्यां सूचनायै सहजीकरणस्य च प्रयोजनाय शिक्षा मानव स्रोत विकास केन्द्रे सहायता कक्ष स्थापितोऽस्तीति मन्त्रालयेन ज्ञापितं वर्तते। शिक्षा विज्ञान प्रविधि युवक्रीडा मन्त्री सस्मित पोखरेलः निगदति हुतात्म दशरथ चन्द स्वास्थ्य विज्ञान विश्वविद्यालयस्य विषयाय सर्वकारेण उच्चैः प्राथमिकता प्रदत्ता वर्तते। पूर्वेद्य कैलाली जनपदस्य गेटा स्थाने पत्रकारैः मन्त्री पोखरेलः शिक्षा स्वास्थ्य क्षेत्रयोः विकासस्य विषयेभ्य वर्तमान सर्वकारेण उच्चैः प्राथमिकतां प्रदाय कार्यं विधीयमानमस्तीति अवोचत्। तदवधौ मन्त्री पोखरेलः स्वास्थ्य विज्ञान विश्वविद्यालयस्य स्वास्थ्य शिक्षयोः विकासस्य प्रमुख केन्द्र सम्पादनस्य लक्ष्यमस्तीति उदैरयत्। मन्त्री पोखरेलः गेटा विश्वविद्यालये विलम्बनेन विना शैक्षिक कार्यक्रमः सञ्चालयिष्यते, तदर्थं सर्वकारेण आवश्यक स्रोत साधनानां जनशक्तेः नीतिगत सहयोगस्य च व्यवस्था विधास्यते इति प्रतिबद्धतां व्यक्तवान्। सर्वकारेण सार्वजनिक यातायात साधनानां वस्तुवाहकयानानां च भाटकस्य समायोजनाय सहमतिः प्रदत्ता अस्ति। इन्धनस्य मूल्यस्य वर्धनानन्तरं भौतिक पूर्वाधार यातायात मन्त्रालयेन यातायात व्यवस्था विभागाय सार्वजनिक यातायात साधनानां भाटकस्य वर्धनाय सहमति प्रदत्ता अस्ति। इन्धनस्य मूल्यस्य वर्धनेन सहैव भूयो भूयो नेपाल यातायात व्यवसायी राष्ट्रिय महासंघेन सार्वजनिक यातायात साधनानां वस्तुवाहक साधनानां च भाटकस्य समायोजनं कर्तुम् अभियाचमानम् आसीत् इति समाचारः।